नमः सर्वेभ्यः। अद्य कोविदवर्गस्य अष्टाविंशः पाठः, जुलै मासस्य सप्तविंशः दिनाङ्कः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मिनमो गुरवे। न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये, जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ। महाकविकालिदासस्य रघुवंशमहाकाव्ये द्वितीयस्य सर्गस्य चिताः श्लोकाः अस्माभिः अधीयमानाः सन्ति। एकवारं पठामः एतावता अधीतान् श्लोकान्, ततः अग्रे गच्छामः। अथ प्रजानामधिपः प्रभाते, जाया प्रतिग्राहितगन्धमाल्यां, वनाय पीतप्रतिबद्धवत्सां, यशोधनो धेनुमृषेर्मुमोच। तस्याः खुरन्यासपवित्रपांसुम् अपांसुलानान्धुरिकीर्तनीया, मार्गम् मनुष्येश्वरधर्मपत्नी, श्रुतेरिवार्थं स्मृतिरन्वगच्छत्। आस्वादवद्भिः कवलैस्तृणानां, कण्डूयनैर्दंशनिवारणैश्च, अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत्। मरुत्प्रयुक्ताश्च मरुत्सखाभं, तमर्च्यमारादभिवर्तमानम्, अवाकिलन् बाललताः प्रसूनैः, आचारलाजैरिव पौरकन्याः। इत्थं व्रतं धारयतः प्रजार्थं, समं महिष्या महनीयकीर्तेः। सप्तव्यतीयुस्त्रिगुणानि तस्य, दिनानि दीनोद्धरणोचितस्य। अन्येद्युरात्मानुचरस्य भावं, जिज्ञासमाना मुनिहोमधेनुः। गङ्गाप्रपातान्तविरूढशर्पं, गौरीगुरोर्गह्वरमाविवेश। ततो मृगेन्द्रस्य मृगेन्द्रगामी, वधाय वध्यस्य शरं शरण्यः। जाताभिषङ्गो नृपतिर्निषङ्गात्, उद्धर्तुमैच्छत् प्रसभोद्धृतारिः। तमार्यगृह्यन्निगृहीतधेनुः, मनुष्यवाचा मनुवंशकेतुम्। विस्मायन्विस्मितमात्मवृत्तौ, सिंहोरुसत्त्वं निजगादसिंहः। किमभूदेतावता राजा दिलीपः पत्न्या सुदक्षिणया सह वसिष्ठस्य निर्देशानुगुणं नन्दिनी नाम्नीं होमधेनुं सेवते। तस्याः सेवार्थं तया सह वनं गच्छति, तत्र बहुभिः प्रकारैः तस्याः सेवां करोति। एकविंशतिं दिनानि यावत् दिलीपः नन्दिनीम् उपचरति। परेद्युः नन्दिनी दिलीपस्य भक्तेः दार्ढ्यं ज्ञातुमिच्छति। सा गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश। हिमालये गङ्गाप्रपातस्य समीपे काञ्चित् गुहां प्रविशति। राजा तत्रैव पर्वतस्य शोभां पश्यन् भवति, तावति तस्याः आक्रन्दनं श्रूयते। सः पश्यति तत्र केसरिणं ददर्श, एकं सिंहं पश्यति। नन्दिन्याः उपरि तिष्ठन्तम् एकं सिंहं पश्यति। तस्य सिंहस्य वधाय, वधाय वध्यस्य शरं शरण्यः। सिंहं हन्तुं सः स्वस्य निषङ्गात् बाणम् उद्धर्तुं गच्छति, किन्तु चित्रार्पितारम्भ इवावतस्थे। तस्य हस्तः तत्रैव लग्नः भवति, सः हस्तं चालयितुमपि न शक्नोति। तदा आत्मवृत्तौ विस्मितं, किमर्थम् एवम् अभूद् इति अत्यन्तं विस्मितः दिलीपः। तम् इतोपि मनुष्यवाचा विस्माययन्, सिंहः निजगाद, सः सिंहः भाषते, दिलीपम् उद्दिश्य भाषते। किं वदति सः इति अग्रे द्रष्टव्यम्। तत्र मध्ये पुनः केचन श्लोकाः न सन्ति। अलं महीपालतवश्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात्, न पादपोन्मूलनशक्तिरंहः, शिलोच्चये मूर्च्छति मारुतस्य। स सिंहः वदति अलं तव श्रमेण बहु कष्टेन तव हस्तम् उन्नेतुं भवान् प्रयतमानः अस्ति अलं श्रमेण किमर्थं प्रयुक्तम् अपि अस्त्रं वृथा स्यात् यद्यपि त्वं बाणप्रयोगं करोषि तेन किमपि प्रयोजनं नास्ति किमर्थं कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् अवेहि मां किङ्करमष्टमूर्तेः कुम्भोदरन्नाम निकुम्भमित्रम् अहम् अष्टमूर्तेः किङ्करः अष्टमूर्तिः शिवः कालिदासस्य इष्टदैवं वस्तुतः शिवस्य विषये तस्य बहवः मङ्गलश्लोकाः सन्ति तत्र अभिज्ञानशाकुन्तलस्य मङ्गलश्लोकः अस्ति या सृष्टिस्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री येद्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वं यामाहुः सर्वभूतप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ईश्वरस्य अष्ट रूपाणि सन्ति इति वर्णयति तत्र जलम् आकाशः पञ्चभूतानि यजमानः हविः इत्यादि अतः अष्टमूर्तिः इत्युक्ते शिवः अहं शिवस्य किङ्करः कुम्भोदरः इति मम नाम शिवगणेषु अन्यतमः एषः कुम्भोदरं नाम निकुम्भमित्रम् अतः अहं तु परमेश्वरस्य गणेषु अन्यतमः भवान् बाणप्रयोगं करोति चेदपि किमपि प्रयोजनं नास्ति यदि परमेश्वरस्य किङ्करः तर्हि सिंहरूपेण किमर्थम् इति चेत् तदपि सः अग्रे वर्णयति अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः अमुं पुरः पश्यसि देवदारुं देवदारुः इति वृक्षविशेषः हिमालयेषु अत्यन्तं प्रसिद्धः दिस् इस् अ वेरि कामन् ट्री फौण्ड् इन् द हिमालयन् रीजन् इट् इस् काल्ड् डियोडार् DEODAR हिमालयन् डियोडार् इत्येव नाम अस्ति तस्य इट्स् अ सेडार् ट्री ओके वेरि कामन्ली फौण्ड् इन् द हिमालयन् रीजन् सो अमुं पुरः पश्यसि देवदारुं तत्र समीपे सः एकं वृक्षं प्रदर्श्य वदति एषः वृक्षः वृषभध्वजेन पुत्रीकृतः वृषभध्वजः शिवः शिवेन पुत्रीकृतः अपुत्रः पुत्रः कृतः पुत्रीकृतः गतिसमासः वस्तुतः सः पुत्रः न बट् शिव ट्रीट्स् इट् लैक् अ सन् तावान् प्रियः सः वृक्षः शिवस्य न केवलं शिवस्य पार्वत्याः अपि अत्यन्तं प्रियः स्कन्दस्य मातुः पयसां रसज्ञः पार्वती स्वयं तस्य वृक्षस्य जलसेचनं करोति एवं शिवपार्वत्योः अत्यन्तं प्रियः एषः वृक्षः अस्ति देवदारुवृक्षः इत्युक्त्वा अग्रिमश्लोकं वदति किं जातं तस्य देवदारुवृक्षस्य इति अस्ति वा ओ कैलासगौरं वृषमारुरुक्षोः इति ओ सोरि ऐ मस्ट् हव् मिस्ड् इट् देन् ओके तर्हि कुर्मः कैलासगौरं वृषमारुरुक्षोः क्षम्यताम् ऐ हव् मिस्ड् दिस् 35 इस् अपरेण्ट्लि इन् द शिक्षा सिलबस् अस्तु तर्हि तस्य एतत् वील् डू इट् इदानीं कुर्मः अनन्तरमहं तस्य टिप्पणीः निर्मामि चिन्ता नास्ति कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् अवेहि मां किङ्करमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् कोऽपि वक्तुमिच्छति पदच्छेदः चन्द्रशेखरन् महोदय
पदच्छेदम् एव करोमि वा एकवारं
पठामः कैलासगौरं वृषमारुरुक्षोः
कैलासगौरं वृषमारुरुक्षोः कैलासगौरं वृषमारुरुक्षोः
पादार्पणानुग्रहपूतपृष्ठम्
पादार्पणानुग्रहपूतपृष्ठम् पादार्पणानुग्रहपूतपृष्ठम्
अवेहिमां किङ्करमष्टमूर्तेः
अवेहिमां किङ्करमष्टमूर्तेः अवेहिमां किङ्करमष्टमूर्तेः
कुम्भोदरं नाम निकुम्भमित्रम्
कुम्भोदरं नाम निकुम्भमित्रम् कुम्भोदरं नाम निकुम्भमित्रम्
एकवारं पूर्णं पठतु
कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् अवेहिमां किङ्करमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् पदच्छेदः कैलासगौरं वृषम् आरुरुक्षोः पादार्पण अनुग्रहपूतपृष्ठम् अवेहि मां किङ्करम् अष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम्
सम्यक् कैलासगौरं वृषम् आरुरुक्षोः पाद अर्पण अनुग्रह पूतपृष्ठम् एकमेव पदं पादार्पणानुग्रहपूतपृष्ठम् अवेहि मां किङ्करम् अष्टमूर्तेः कुम्भोदरं कुम्भ उदरं कुम्भोदरं नाम निकुम्भमित्रम् सम्यक् सन्धिः कुत्र अस्ति
अत्र कैलासगौरं वृषभारुरुक्षोः अनुस्वारसन्धिः वृषमारुरुक्षोः पादार्पण विसर्गसन्धिः उपद्मानीयः
भवति
पाद अर्पण दीर्घ सवर्णदीर्घसन्धिः अर्पण अनुग्रह सवर्णदीर्घसन्धिः अवेहि मां मां किङ्करम् अत्रापि अनुस्वारसन्धिः अष्टमूर्तेः कुम्भोदरं जिह्वामूलीयः विसर्गस्य जिह्वामूलीयः कुम्भोदरं नाम तत्र अनुस्वारसन्धिः एवं
सम्यक् एवञ्च कः अर्थः सामान्यार्थः उक्तः अहं शिवस्य किङ्करः मम नाम कुम्भोदरः अहं निकुम्भस्य मित्रमस्मि इति सिंहः कथयति वाक्यविश्लेषणं क्रियापदम्
अवेहि
अवेहि इति क्रियापदम् प्रथमाविभक्तौ
कुम्भोदरम् इति प्रथमा भक्तिः वा
अवेहि इत्युक्ते त्वम् इति किं कर्तृपदं तत्तु अध्याहर्तव्यं प्रथमाविभक्तौ किमपि नास्ति द्वितीया विभक्तिः
कैलासगौरं पादार्पणानुग्रहपूतपृष्ठं मां कुम्भोदरं नाम निकुम्भमित्रम् इति द्वितीया विभक्तयः
वृषम् एवं
वृषम्
किङ्करम्
किङ्करं
कैलासगौरं वृषं पादार्पणानुग्रहपूतपृष्ठं मां किङ्करं कुम्भोदरं निकुम्भमित्रं सर्वमपि
द्वितीया
विभक्तिः
आरुरुक्षोः अष्टमूर्तेः इति षष्ठी
षष्ठी विभक्तिः सम्यक् नाम इति अव्ययत्वेन अत्र एतादृशस्थले नाम इति अव्ययत्वेन स्वीकर्तुं शक्यते. रुम्भोदरम् इति प्रसिद्धम् इत्यर्थः.
अवेहि किम्
अवेहि?
माम् अवेहि कीदृशं कीदृशं माम् कैलासगौरं पुनः कीदृशः
न तत्तु तत्
किङ्करम् किङ्करम् अपि च कीदृशं कुम्भोदरं नाम निकुम्भमित्रं
किङ्करं
कस्य किङ्करम् अष्टमूर्तेः किङ्करम् अपि च अहं कीदृशः कीदृशं मां कुम्भोदरं नाम
कुम्भोदरं नाम
पुनः कीदृशं निकुम्भमित्रं अपि च
आरुदृशं
पुनः पादार्पणानुग्रहपूतपृष्ठं
पूतपृष्ठं
अपि च कस्य
पादार्पणानुग्रहपूतपृष्ठम्
आरुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् पुनः कीदृशं कैलासगौरं
किम् आरुरुक्षोः वृषम् आरुरुक्षोः कीदृशं वृषम्
किम् आरुरुक्षोः वृषम् आरुरुक्षोः कीदृशं वृषं कैलासगौरं
कैलासगौरं वृषं सम्यक्. अवेहि अवेहि जानीहि सो नो मी इत्यर्थः. त्वं माम् अवेहि माम् अवगच्छ इत्यर्थः. नो मी कम् अवेहि माम् इति सिंहः दिलीपं प्रति अवगच्छति. मां सिंहम् इदानीं सिंहरूपेण अस्मि. मां जानीहि कीदृशं जानीहि किङ्करं किङ्करं सेवकं कीदृशं किङ्करं पादार्पणानुग्रहपूतपृष्ठं कस्य किङ्करम् अष्टमूर्तेः किङ्करम् अष्टमूर्तिः शिवः शिवस्य सेवकं मां जानीहि नो मी टु बी अ सर्वेण्ट् आफ् शिव कीदृशं किङ्करं पादार्पणानुग्रहपूतपृष्ठं पाद अर्पण अनुग्रह पूत पृष्ठः यस्य इत्युक्ते मम पृष्ठभागः पृष्ठ इस् द बैक् ओके सो मै बैक् इस् पूतं पूतं पवित्रं केन पवित्रम् अनुग्रहेण सो मै बैक् हेज् बीन् मेड् सीक्रेट् और् प्यूरिफैड् साङ्क्टिफैड् बै द ग्रेस् वाट् सार्ट् आफ् अ ग्रेस् पाद अर्पण of stepping upon. What he is saying is, when Shiva wanted to climb aru rukshoho, arodhum ichchoho, yada Shivaha arodhum ishtavan, kim arodhum ishtavan, vrisham, swasya vahanam vrishabham arodhum Shivaha ichchati. Tada katham saha arohati, he needs a step, because the vrisha is very tall, nandi. Nandi is very tall. Shiva needed a step to climb onto his vrisha, onto his bull. Then he placed his foot on the back of Kumbhodara. Okay. So Kumbhodara's back has been sanctified by the footstep of the Lord Shiva. Bhagavataha padarpanam eva anugrahaha. पादार्पणरूपेण अनुग्रहेण पूतं पवित्रं यस्य पृष्ठं तादृशः अहम् सो ऐ एम् सच् अ क्लोज् सर्वेण्ट् आफ् शिव दट् वेन् शिव वाण्ट्स् टु क्लैम्ब् हिस् वृष क्लैम्ब् हिस् बुल् हि स्टेप्स् आन् मी एण्ड् हि क्लैम्ब्स् आन् टु द बुल् दट् इस् वाट् हि सेयिङ्ग् सो कीदृशं किङ्करम् पादार्पणानुग्रहपूतपृष्ठं तस्य चरणपातरूपेण अनुग्रहेण ಪವಿತ್ರೀಕೃತ ಪೃಷ್ಠಭಾಗಂ ಸೇವಕಂ ಜಾನೀಹಿ. ಕೀದೃಶಸ್ಯ ಅಷ್ಟಮೂರ್ತೇಃ ಪಾದಾರ್ಪಣಾನುಗ್ರಹೇಣ ಪೂತಂ ಆರು ರುಕ್ಷೋಹೋ ಆರೋಢುಂ ಇಚ್ಛೋಹೋ ಕಂ ಆರು ರುಕ್ಷೋಹೋ ವೃಷಂ ಸ್ವಸ್ಯ ವೃಷಭಂ ನಂದಿನಂ ಆರೋಢುಂ ಇಚ್ಛೋಹೋ ಕೀದೃಶಂ ವೃಷಂ ಕೈಲಾಸ ಗೌರಂ. Nandi is as white as Kailasa. Kailasa is a snowy mountain. So it is very white, pure white. The bull of Shiva is also white like Kailasa. Kailasaha iva gauraha Kailasa gauraha. Himalayavat shubhravarnam swasya vrishabham nandinam arodhu michoho shivasya ಚರಣಪಾತಾನ್ ರೂಪೇಣ ಅನುಗ್ರಹೇಣ ಪವಿತ್ರೀಕೃತ ಪೃಷ್ಠಭಾಗಂ ಸೇವಕಂ ಮಾಂ ಜಾನೀಹಿ. ಪುನಃ ಕೀದೃಶಂ ಕುಂಭೋದರಂ ನಾಮ ಕುಂಭೋದರಃ ಇತಿ ನಾಮ್ನಾ ಪ್ರಸಿದ್ಧಂ ಮಾಂ ಜಾನೀಹಿ. ಪುನಃ ಕೀದೃಶಂ ನಿಕುಂಭ ಮಿತ್ರಂ ನಿಕುಂಭಸ್ಯ ಮಿತ್ರಂ ಸುಹೃದ್ ನಿಕುಂಭಃ ಇತಿ ಅಪರಃ ಶಿವಗಣಃ ತಸ್ಯ ಮಿತ್ರಂ ಅಹಂ ಅಸ್ಮಿ ಇತಿ ಸಿಂಹಃ ಸ್ವಸ್ಯ ಪರಿಚಯಂ ದದಾತಿ. ಸೊ ಸಿನ್ಸ್ ವಿ ಹ್ಯಾವ್ ಅನ್ ಅಕೇಶನ್ ಹಿಯರ್, ಲೆಟ್ ಅಸ್ ಕ್ವಿಕ್ಲಿ ರೀಡ್ ಮಲ್ಲಿನಾಥಸ್ ವ್ಯಾಖ್ಯಾನ. ಐ ವೀನ್ ವಾಂಟಿಂಗ್ ಟು ಡೂ ದಿಸ್ ಯತೋಹಿ ತತ್ರ ಅರ್ಥಸ್ಯ ಸ್ಪಷ್ಟತಾ ಸಿದ್ಧ್ಯತಿ. ಸೊ ಲೆಟ್ ಅಸ್ ಕ್ವಿಕ್ಲಿ ರೀಡ್ ದ ಒರಿಜಿನಲ್ ವ್ಯಾಖ್ಯಾನ. ಕೃಪಯ ಅಸ್ಮಾಭಿಹಿ ಅತ್ರ ವರ್ಗೇ ಸಮಯಸ್ಯ ಅಭಾವೇನ ಸರ್ವೇಷಾಂ ಶ್ಲೋಕಾನಾಂ ವ್ಯಾಖ್ಯಾನಂ ಪಠಿತುಂ ನ ಶಕ್ಯತೆ. ಕಿಂತು ಸಾರಿ ಯಾ ಹಿಯರ್ ಇಟ್ಸ್ ಹಿಯರ್ ಥ್ಯಾಂಕ್ ಯು. ಓಕೆ ಸೊ ಸೊ ಅತ್ರ ಅನ್ವಯ. So Mallinatha Vyakhyane Puromapi Uktam, if you just look at the words in bold, you will get the Anvaya, right? So Kailasa Gauram Vrisham Aru Rukshoho Ashtamurtehe Padarpananugraha Poota Prishtham Nikumbha Mitram Kumbhodaram Nama Kinkaram Maam Avehi Iti Anvaya. Kailasa Gauram, ಕೈಲಾಸಃ ಇವ ಗೌರಃ ಶುಭ್ರಃ ತಂ. ಅತ್ರ ವಿಗ್ರಹವಾಕ್ಯಂ ಅಪಿ ದೀಯತೆ, ಅರ್ಥಃ ಅಪಿ ದೀಯತೆ ಮಲ್ಲಿನಾಥೇನ. ಸೊ ಕೈಲಾಸಃ ಇವ ಗೌರಃ, ಗೌರಃ ಇತ್ಯುಕ್ತೆ ಶುಭ್ರಃ, ತಂ ಕೈಲಾಸ ಗೌರಂ. ಚಾಮೀಕರಂಚ ಶುಭ್ರಂಚ ಗೌರಮಾಹುರ್ ಮನೀಷಿಣಃ ಇತಿ ಶಾಶ್ವತಃ. ಶಾಶ್ವತ ಈಸ್ ಅನದರ್ ಕೋಶ ಲೈಕ್ ಅಮರಕೋಶ. ಅಮರಕೋಶ ಸದೃಶಃ ಅನ್ಯಃ ಕೋಶಃ ಅಸ್ತಿ ಶಾಶ್ವತಕೋಶಃ. ತತಃ ಗೌರಶಬ್ದಸ್ಯ ವ್ಯುತ್ಪತ್ತಿಂ ದರ್ಶಯತಿ. ಸೊ ಶುಭ್ರಂಚ ಗೌರಂ ಆಹುಃ ಇತಿ ಗೌರಶಬ್ದಸ್ಯ ಶುಭ್ರಃ ಇತ್ಯರ್ಥಃ ಅಸ್ತಿ. ವೃಷಂ ವೃಷಭಂ ದ ಬುಲ್, ಆರು ರುಕ್ಷೋಃ ಆರೋಢುಂ ಇಚ್ಛೋಃ ಸ್ವಸ್ಯ ಉಪರಿ ಪದಂ ನಿಕ್ಷಿಪ್ಯ ವೃಷಂ ಆರೋಹತೆ ಇತ್ಯರ್ಥಃ. ಶಿವಃ ಸ್ವಸ್ಯ ನಾಮ ತಸ್ಯ ಕುಂಭೋದರಸ್ಯ ಉಪರಿ ಪದಂ ನಿಕ್ಷಿಪ್ಯ ವೃಷಂ ಆರೋಹತೆ. ಶಿವ ಸ್ಟೆಪ್ಸ್ ಆನ್ ಟು ಕುಂಭೋದರಸ್ ಬ್ಯಾಕ್ ವೈಲ್ ಕ್ಲೈಂಬಿಂಗ್ ದ ಬುಲ್ ನಂದಿನ್. ಅಷ್ಟೌ ಮೂರ್ತಯಃ ಯಸ್ಯ ಸಹ ಅಷ್ಟಮೂರ್ತಿಃ ತಸ್ಯ ಅಷ್ಟಮೂರ್ತೇಃ ಶಿವಸ್ಯ ಪಾದಾರ್ಪಣಾನುಗ್ರಹ ಪೂತ ಪೃಷ್ಠಂ. ಪಾದಾರ್ಪಣಂ ಪಾದನ್ಯಾಸಃ ಸ್ಟೆಪ್ಪಿಂಗ್ ಅ ಫುಟ್ ಸ್ಟೆಪ್. ತದೇವ ಅನುಗ್ರಹಃ ಪ್ರಸಾದಃ ತೇನ ಪೂತಂ ಪೃಷ್ಠಂ ಯಸ್ಯ ತಂ ತಥೋಕ್ತಂ. ಶಿವಸ್ಯ ಪಾದನ್ಯಾಸರೂಪೇಣ ಪ್ರಸಾದೇನ ಪವಿತ್ರೀಕೃತಂ ಪೃಷ್ಠಂ ಯಸ್ಯ ತಾದೃಶಂ ನಿಕುಂಭಮಿತ್ರಂ. ವಿವರಣಂ ನಾಪೇಕ್ಷಿತಂ. ಸೊ ಮಲ್ಲಿನಾಥ ಡಸ್ ನಾಟ್ ಎಕ್ಸ್ಪ್ಲೈನ್ ಎವ್ರಿ ವರ್ಡ್, ಎಕ್ಸ್ಪ್ಲೈನ್ಸ್ ಓನ್ಲಿ ದಟ್ ವಿಚ್ ರಿಕ್ವೈರ್ಸ್ ಎಕ್ಸ್ಪ್ಲನೇಷನ್. ಸೊ ನಿಕುಂಭಮಿತ್ರಂ கும்போதரம் நாம கிங்கரம் மாம் அவேஹி அவேஹி வித்தி ஜானீஹி இத்யர்த்தஹ. அஷ்டமூர்த்தயஹ கஹ இதி அத்ர பிரமாணம் பிரதர்ஷயதி மல்லிநாதஹ. பிருத்திவி சலிலம் தேஜஹ வாயுஹு ஆகாஷமேவச சூர்யா சந்திரமசௌ சோமயாஜி ச இதி அஷ்டமூர்த்தயஹ. பிருத்திவி பூமிஹி சலிலம் ஜலம் தேஜஹ அக்னிஹி வாயுஹ ஆகாஷஹ இதி பஞ்சபூதானி சூர்யா சந்திரமசௌ சூர்யஹ சந்திரஹ சோமயாஜி யஹ யாகம் கரோதி யஜமானஹ இதி அஷ்டமூர்த்தயஹ. சிவஸ்ய ஸ்வரூபம் ஏதத் சர்வமபி அதஹ சிவஹ அஷ்டமூர்த்திஹி இதி யாதவஹ யாதவகோஷே ஏவமஸ்தி இதி மல்லிநாதஹ பிரமாணம் தர்ஷயதி. ஏவம் கைலாசகௌரம் விருஷமாருருக்ஷோஹ பாதார்ப்பணானுக்ரஹபூதப்ருஷ்டம் அவேஹிமாம் கிங்கரமஷ்டமூர்த்தேஹ கும்போதரன்நாம நிகும்பமித்ரம். அஸ்து இதானீம் வ்யாகரணாம்சாஹ. அர்த்தாவகமனே கேபி பிரஷ்னாஹ சந்தி வா? Any questions regarding the meaning? Astu. Idanim vyakaranamshan pashyamaha. So we'll quickly ye vaktum ichanti vadantu. I'll add this to the notes later, but you can always tell. Okay, so kailasa gauram ye vaktum ichanti hastam unnayantu. Ha, mahalakshmi bhagini.
Kailasa gauram akaranta
சத்யம் விருஷம் இத்யஸ்ய விசேஷணம் அதஹ அகாராந்தஹ புல்லிங்கஹ த்விதீயா விபக்தௌ ஏகவசனம். சமாஸஹ
கைலாசஹ இவ கௌரம்
கௌரஹ தம் கைலாசஹ கௌரஹ தம் உபமான பூர்வபத கர்மதாரயஹ. சம்யக் கைலாச கௌரம் வ்ருஷம் சத்யம் அகாராந்தஹ புல்லிங்கஹ த்விதீயா விபக்தௌ ஏகவசனம். வ்ருஷம் அக்ரே ஆறு ருக்ஷோஹ
உகாராந்தஹ புல்லிங்கஹ ஷஷ்டி விபக்தி ஏகவசனம்
ஷஷ்டி விபக்தௌ ஏகவசனாந்தம். ஆறு ருக்ஷு இதி சப்தஹ ஆறு ருக்ஷு சப்தஸ்ய ஷஷ்டி விபக்தௌ ஏகவசனம். கீத்ருஷஹ சப்தஹ ஏஷஹ கஹ விக்ரஹஹ ஜானாதி வா? ஆரோடும் இச்சதி தஸ்ய ஆரோடும் இச்சதி இத்யர்த்தே ஆ உபசர்காத் ருஹ் தாதோஹ சன் பிரத்யயஹ பவதி புனஹ உ அயம் க்ருதந்த சப்தஹ. சோ ஆரு ருக்ஷு சிகீர்ஷுஹு பிபாசுஹு ஜிகமிஷுஹு இத்யாதயஹ சப்தாஹ பவந்தி. சன்னந்தஹ ஆரோடும் இச்சதி ஆரு ருக்ஷதி இதி ஆறு ருக்ஷ இதி சன்னந்தஹ தாதுஹ தஸ்மாத் தாதோஹ உ இதி க்ருத் பிரத்யயஹ பவதி. அதஹ ஆறு ருக்ஷு இதி க்ருதந்த சப்தஹ உகாராந்தஹ புல்லிங்கஹ தஸ்ய ஆறு ருக்ஷோஹ கைலாச கௌரம் விருஷமாறு ருக்ஷோஹ. அக்ரிமம் மகாதேவன் மகோதயா. பாதார்ப்பணானுக்ரஹ பூத பிருஷ்டம்.
பாதார்ப்பணானுக்ரஹ பூத பிருஷ்டம், பாதயோகோ அர்ப்பணம் பாதார்ப்பணம்.
அகாராந்தஃ புல்லிங்கஃ த்விதீயா விபக்தௌ ஏகவசனம் மாம் இத்யஸ்ய விசேஷணம். பாதயோஹ அர்ப்பணம்
அர்ப்பணம் பாதார்ப்பணம்
ஷஷ்டி தத் புருஷ.
பாதார்ப்பணமேவ அனுக்ரஹ
அவதாரணா பூர்வ பத கர்மதாரய.
பாதார்ப்பணானுக்ரஹேண பூதம் பிருஷ்டம் யஸ்ய சஹ.
பூதம் இதி ஆதௌ
பூதம்
பாதார்ப்பணானுக்ரஹேண பூதம்
பூதம்
சம்யக். அத்ர பஹுவ்ரீஹி சமாஸஹ. ஸோ ஹ்யஹ அபி அஸ்மாபிஹி த்ருஷ்டம் தேர் இஸ் அ சமாஸ மாலா, அ சீரீஸ் ஆஃப் சமாஸஸ். ஸோ அத்ர பஞ்ச பதானி சந்தி, தத்ர த்வயோஹோ த்வயோஹோ சமாஸஹ. ஸோ வி ஆல்வேஸ் டேக் இட் டூ டூ டூ. ஸோ பாதயோஹோ அர்ப்பணம் அதுவா பாதஸ்ய அர்ப்பணம் பாதார்ப்பணம் ஷஷ்டி தத் புருஷஹ. பாதார்ப்பணம் ஏவ அனுக்ரஹ பாதார்ப்பணானுக்ரஹ கர்மதாரய பாதார்ப்பணானுக்ரஹேண பூதம் இதி தத்புருஷஹ. பாதார்ப்பணானுக்ரஹ பூதம் பிருஷ்டம் யஸ்ய சஹ இதி அந்தே பஹுவ்ரீஹி சமாஸஹ. ஆல்வேஸ் டேக் இட் ஒன் பை ஒன். வி கீப் ஆடிங் த திஸ் ஒன் ஈச் வேர்ட். ஸோ யூ டேக் டூ, மேக சமாச அண்ட் தென் ஆட் ஒன் மோர் தென் ஆட் ஒன் மோர் ஏவம் பவதி. பாதார்ப்பணானுக்ரஹ பூத, பூதம் நாம பவித்ரம் பூஞ்ச பவனே இதி தாதோஹ க்த ப்ரத்யயாந்தஹ. அக்ரிமம் அவேஹி.
அவேஹி அவேஹி லோட் மத்யம புருஷ,
லோட் லகாரஹ மத்யம புருஷ ஏகவசனம். அவ உபசர்கஹ இன் கதௌ இதி தாதுஹ. ஏதி இதஹ யந்தி இதி பிரதம லட்லகாரே ரூபம். அவ ஏதி அவேதி இதி தத்ர பரரூப சந்திஹி பவதி. ஏவம் தஸ்ய லோட்லகாரே மத்யம புருஷே அவேஹி இதி ரூபம் பவதி.
அஷ்டமூர்த்தே இஸ் இட் டு பி லிங்க்ட் வித் பாதார்ப்பணானுக்ரஹ? அஷ்டமூர்த்தே
ஆருருக்ஷோ அஷ்டமூர்த்தே பாதார்ப்பணானுக்ரஹ பூத பிருஷ்டம் கிங்கரம்.
தட் இஸ் தி அன்வய்.
அஷ்டமூர்த்தேதார்ப்பணானுகிரகபூதபிருஷ்டம் நாம கிங்கரம். அவேஹி மாம் சகாராந்தஹ திஷு லிங்கேஷு சமானஹ. அஸ்மத் சப்தஹ தஸ்ய த்விதீயா விபக்தௌ ஏகவசனம். தன்யவாதாஹ. அக்ரே அன்யே கேபி வக்தும் இச்சந்தி? சந்திரசேகரன் மகோதய.
அஷ்டமூர்த்தேஹ
கிங்கரம் அரேஹிமாம் கிங்கரம்
கிங்கரம் கிங்கரம் கிங் அகாராந்த புல்லிங்க சப்தஹ த்விதியா ஏகவசனம்
அகாராந்த புல்லிங்க த்விதியா விபக்தௌ ஏகவசனம் கிங்கரஹ வஸ்துதஹ தத்ர கிங்கரோமி இதி யஹ ப்ருச்சதி ஸஹ கிங்கரஹ இதி சாமான்யதஹ உச்யதே நிஷ்பத்திஹ வஸ்துதஹ த்ரஷ்டவ்ய கிங்கர சோ கிங்கர இஃப் யூ லுக் அட் ஹியர் அமரகோஷே நியோஜ்ய கிங்கர பிரைஷ்ய புஜிஷ்ய பரிசாரகாஹ சேவகஹ இத்யஸ்ய ப்ருத்யே தாசேர தாசேய தாச கோப்யக சேடகாஹ நியோஜ்ய கிங்கர பிரைஷ்ய புஜிஷ்ய பரிசாரகாஹ ஏதே சர்வேபி கிங்கர சப்தஸ்ய பர்யாய பதாஹ கிஞ்சித் கரி இதி சோ யத் கிஞ் யத்தத் பஹுஷு இதி அச் ப்ரத்யயஹ கிஞ்சித் கரோதி அச் பிரத்யயஹ க்ருதந்த சப்தஹ கிங்கர இதி ததேவ தத் யதுச்யதே கிங்கரோமி இதி ப்ருச்சதி இதி தத்து இட் இஸ் அ ஜெனரல் யூனோ எக்ஸ்பிளனேஷன் வஸ்துதஹ வியாக்கரண ரீத்யா நிஷ்பத்திஹ ததா ந உச்யதே கிஞ்சித் கரோதி இத்யர்த்தே கிங்கரஹ இதி நிஷ்பத்திஹ தர்ஷ்யதே ததா உச்யதே So that is a general this thing which is said. Agre ashtamurtehe.
Ikaranta pullinga shabdaha dvitiya ekam.
Ikarantaha pullingaha shashti ekavachanam.
Atra vigraham
vigraha
ashtaha ashtau murtihi yasya saha.
Ashtau bahuvachanam.
அஷ்டௌ மூர்த்தயஹ நன அஷ்டௌ இதி பிரதம கதம் உக்தவான்
பஹுவசனமேவ
பஹுவசன அஷ்டௌ நித்ய பஹுவசனம்
அஷ்டௌ நித்ய பஹுவசனாந்தஹ சப்தஹ
அஷ்டௌ மூர்த்தயஹ யஸ்ய சஹ அஷ்டமூர்த்தி
யஸ்ய சஹ தஸ்ய பஹுவ்ரீஹி சமாஸஹ அஸ்ததஹ அத்ர அஷ்டௌ மூர்த்தயஹ அஷ்ட மூர்த்தயஹ உபயமபி அஸ்தி அஷ்டன் இதி சப்தஸ்ய நகாராந்தஹ சப்தஹ நித்யம் பஹுவசனாந்தஹ சப்தஹ பிரதமா விபக்தௌ பஹுவசனே அஷ்ட அஷ்டௌ இதி உபயதாபி ரூபமஸ்தி அதஹ அஷ்ட மூர்த்தயஹ யஸ்ய சஹ அதவா அஷ்டௌ மூர்த்தயஹ யஸ்ய சஹ உபயதாபி விக்ரஹஹ வக்தும் சக்யதே அஷ்டன் மூர்த்தி இதி பிராதிபதிகம் தத்ர நகாரஸ்ய லோபே அஷ்டமூர்த்தி இதி பவதி ஹா கிங்கரம் அஷ்டமூர்த்தேஹ கும்போதரம்
கும்போதரம் கும்போதரஹ இதி அகாராந்த புல்லிங்க சப்தஹ த்விதியா ஏகவசனம்
த்விதியா விபக்தௌ ஏகவசனம்
கும்பம் இவ உதரம் வா
கும்பம்
கும்பஹ இவ உதரம் யஸ்ய சஹ
யஸ்ய சஹ அஸ்ததஹ யத்யபி நாமசு வென் இட் இஸ் அ ப்ராப்பர் நேம் வி டோன்ட் நீட் டு கிவ் அ விக்ரஹ பட் வி ஹாவ் சம்திங் கால்ட் த anvartha namas okay where the most of our names samanyatah asmakam namani ani bhavanti arthapurnani bhavanti tatra vigraha vakyam uchyate so technically when it is a name it is just conventional you don't need to give a vigraha kintu arthapurnam nama iti bhavati ityatah tatra vigraha vakyam diyate kumbhaha iva udaram yasya saha kumbhodarah இதி
தம்
ஆ எஸ்ய சஹ தம் கஹ சமாஸஹ
பஹுவ்ரீஹி
உபமான பூர்வபத
பஹுவ்ரீஹி
பஹுவ்ரீஹி சமாஸஹ சோ ஹி ஹூஸ் பெல்லி இஸ் லைக் அ பாட் பிக் பெல்லி இத்யுக்தே பஹு காததி இத்யர்த்தஹ இட் இஸ் அ வெரி சிக்னிஃபிகன்ட் நேம் இன் தி கான்டெக்ஸ்ட் ஹி இஸ் சேயிங் கும்போதர தட் இஸ் His belly is very big and he is planning to eat that cow and digest it. Ataha, it makes sense to understand the vigraha. Kumbhodaram, nama.
Avyayam.
Nama iti atra, prasiddham ityarthaha atra. अतः अव्ययम् निकुम्भमित्रम्
निकुम्भमित्रम् अकारान्त नपुंसकलिङ्गशब्दः पुल्लिङ्गशब्दः द्वितीय एकवचनं
पुल्लिङ्गं वा नपुंसकलिङ्गं वा
अत्र मित्रम् इति नपुंसकं परन्तु निकुम्भमित्रम् इति निकुम्भ अस्तु अत्र तत्पुरुषः नपुंसकलिङ्गशब्दः एव
नपुंसकलिङ्गः
द्वितीय एकवचनं
द्वितीयविभक्तौ एकवचनं विग्रहः
मित्रं
निकुम्भस्य मित्रं तत् प्रथमाविभक्तौ द्वितीयाविभक्तौ समानं भवति षष्ठी तत्पुरुषसमासः सो तत्पुरुषसमासे लिङ्गं न परिवर्तते उत्तरपदस्य यत् लिङ्गं तदेव लिङ्गं भवति अतः निकुम्भमित्रम् इति नपुंसकलिङ्गशब्दः ईवन् दो इट् इस् अ विशेषण टु कुम्भोदरः विच् इस् आल् पुल्लिङ्ग मित्रशब्दः नपुंसकलिङ्गः इत्यतः नपुंसकलिङ्गशब्दः निकुम्भस्य मित्रं निकुम्भमित्रम् कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् अवेहिमां किङ्करमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् अत्र केचन प्रश्नाः सन्ति हौ टु डिटर्मैन् वेदर् कैलासगौरम् इस् उपमानपूर्वपद तत्पुरुष आर् बहुव्रीहि अर्थम् आश्रित्य एव समासस्य निर्णयः कर्तुं शक्यते वेन् यु हाव् कैलास कैलास इस् द मौण्ट् कैलास गौर इस् संथिङ्ग् विच् इस् वैट् ओके Now, if you have an anya padartha which is intended, then we have to do a bahuvrihi. Yadi anya padarthasya vivaksha bhavati, tarhi bahuvrihi samasaha bhavati. Atra tu vrisham, vrishaha kidrishaha gauraha, vrishaha shubhravarnaha. Gaura means that which is white. So, the vrisha is white. Ataha gaura ityasya iva pradhanyam bhavati. Kailasaha iva gauraha. अतः तत्पुरुषसमासः यदि अन्यपदार्थस्य प्राधान्यं भवति तदा बहुव्रीहिः वक्तव्यः अत्र तु साक्षात् गौरः इत्यस्यैव प्राधान्यं कथं प्राधान्यं निर्ण्यते एज़् ऐ सेड् यु हेव् टु यूस् अनदर् क्रियापद आर् गुण आर् सम् अदर् वर्ड् अण्ड् सी विच् रिलेट्स् कस्य साक्षात् अन्वयः भवति गौरः इत्यस्यैव कैलास गौरं वृषम् गौर इति वृषस्य विशेषणम् अतः उत्तरपदार्थस्य प्राधान्यम् इत्यतः अत्र कर्मधारयसमासः कुम्भोदरम् इव उदरं यस्य इति न भवति वा नापेक्षितं कुम्भस्य उदरं द उदर इट्सेल्फ् इस् लैक् कुम्भ द उदर इस् नाट् लैक् द उदर आफ् कुम्भ I mean, even when we say the belly of a pot, even in English we have this pot belly. The belly is like a pot. Ataha sakshat kumbhaha eva upamanam natu kumbhasya udaram. Ataha kumbhodaram eva udaram iti napekshitam. Anyaha ekaha prashnaha. Why is he introducing himself as friend of Nikumbha? Is Nikumbha more well known? वस्तुतः अयं प्रश्नः ममापि बहुः कालादस्ति प्रायः अत्र प्रासार्थं तेन उपयुक्तं स्यात् निकुम्भः इति शिवगणः कालिदासस्य काले प्रसिद्धः स्यात् इदानीं तु तथा विशिष्य निकुम्भस्य नाम न श्रूयते तत्र कुम्भोदरम् इत्यत्र प्रासार्थं कविना उपयुक्तं स्यात् अस्य कारणविशेषः अस्ति चेत् मया न ज्ञायते मयापि बहुवारं तद्विषये चिन्तितमस्ति ऐ हेव् नाट् फौण्ड् एनी अदर् आन्सर् टु इट् अण्ड् वै हि इण्ट्रड्यूसस् हिम्सेल्फ् आस् निकुम्भमित्र हा can it also be padarpanena anugrahah? Vaktum shakyate, but here the padarpana itself is the anugraha, that is the intended meaning. That is Shiva placing his foot on somebody itself is the anugraha. Ataha vivakshanugunam tatra karmadharayaha eva uchyate. Mallinathena api tadeva diyate. Ruha is to sprout. Rohati ityasya sprout or to grow ityarthaha. Arohati iti upasarga balat tatra. Arohanam climbing ityarthaha bhavati. Upasarga vashat. Kovida pustake nikumbhaha mitram yasya saha iti uchyate. Taravi shakyate ubhayathapi ayam nikumbhasya mitram nikumbhaha asya mitram ubhayathapi vaktum shakyate. Mallinathena tatra vigraha na diyate. Atra arthaha tu na bhavati atyukte na bhidyate ityataha ubhayathapi vaktum shakyate. Tadatu bahuvrihi samasaha pullinge vaktavyam nikumbhaha mitram yasya saha kumbhodaraha. Ataha pullinga shabdaha iti vaktum shakyate. Kailasa gauram iva gauram iti vaktum shakyate va iti. See, the word gaura does not refer to whiteness as a guna. It refers to something which is already white. Say unnataha ityukte, a person who is tall. It is, or need not be a person, but an object which is tall. It is not pure guna, what we call a gunopasarjana dravyam. Okay. So it is referring to something which is white. Okay. Ataha kailasa gauram iva gauram iti na. Kailasaha iva gauraha vrishaha ityeva tatra artha. Astu agre gachamaha. Kailasa gauram vrishamaru rukshoh padarpana anugrahaputa prishtham avehimaṁ kinkaram ashtamurteh kumbhodaran nāmani kumbhamitram. Okay, so I'll have to include this. So he introduces himself as a Shiva Kinkara and then he talks about a Devadaru Vriksha. Amum Purah Pashyasi Devadarum. Kaschid Devadaru Vriksha Asti Tasya Agre Kim Jatam Iti Agrimaha Shlokaha. Kandu Yamanena Katankada Chit Vanyadvipenon Mathitatva Gasya Athaina Madre Stanaya Shushocha Senanya Malidhamivasura Straihi. Kepivaktumichanti. Mahalakshmi Magini. Kandu Yamanena Katankada Chita.
Kandu Yamanena Katankada Chita. Kandu Yamanena Katam Kadachit
Vanyadvipenon Mathitatvagasya.
Vanyadvipenon Mathitatvagasya. Vanyadvipenon Mathitatvagasya.
Athaina Madre Stanaya Shushocha.
Athaina Madre Stanaya Shushocha. Athaina Madre Stanaya Shushocha.
Senanyam alidham ivasurastraihi.
Senanyam alidham ivasurastraihi. Senanyam alidham ivasurastraihi. Kandu yamanena katam kadachit vanyadvipenon madita svagasya ataina madre stanaya shushocha senanyam alidham. Madre he तनया शुचोच्च सेनान्यम् आलीतम् इव असुरास्त्रैः
कण्डूयमानेन कटं कदाचित् वन्यद्वीपेन उन्मथिता त्वक् अस्य अथ एनम् अद्रेः तनया शुशोच सेनान्यम् सेनान्यम् आलीढम् इव असुर अस्त्रैः
वन्यद्वीपेन उन्मथिता गुणसन्धिः
गुणसन्धि
कदाचित् अनुस्वारसन्धिः त्वकु अस्य जश्वसन्धिः अत एनं वृद्धिसन्धिः तनया अद्रेः तनया विसर्गस्य सकारम् आलीदम् इव पुरास्त्रैः सवर्णदीर्घसन्धिः
सो कटं कदाचित् अनुस्वारः कदाचिद् वन्यद्वीपेन एवं त्वक् अस्य त्वगस्य उभयत्रापि जष्ट्वसन्धिः द्विपेन उन्मथिता द्विपेनोन्मथिता इत्यत्र गुणसन्धिः अथ एनम् अथैनं वृद्धिसन्धिः अद्रेस्तनया विसर्गस्य सकारः इव असुर अस्त्रैः इत्यत्र द्विवारं सवर्णदीर्घसन्धिः कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथितात्वगस्य अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः कः अर्थः कदाचित् कश्चित् वनगजः वन्यद्विपः अस्य वृक्षस्य त्वचं नाशितवान् कण्डूयमानेन कटं कदाचित् इच्छिङ्ग् Elephants, I mean most animals, they get this itching on their skin sometimes. So different animals have different ways of dealing with it. Okay, so they like when somebody itches, say cows, if you scratch them on their head near their horns or their throat, they like it very much because it is a very a soothing sensation. So there is an elephant which had some itching. So it scratched itself against that tree, that devadaru vrikshaha amum purah prashyasi devadarum. So tasya tvak unmathita, when the elephant scratched its head against that devadaru, the bark of that tree was torn away by the force of that elephant. Tada पार्वती अत्यन्तं दुःखिता अद्रेस्तनया नाम पार्वती शुशोच अत्यन्तं दुःखं प्राप्तवती कथं सेनान्यम् आलीढमिवासुरास्त्रैः स्वस्य पुत्रस्य स्कन्दस्य असुराणाम् अस्त्रैः व्रणः भवति चेत् यावान् शोकः मातुः पार्वत्याः तावानेव शोकः तस्य वृक्षस्य स्थितिं दृष्ट्वा तस्याः आसीत् इति सिंहः सः कुम्भोदरः वर्णयति वाक्यविश्लेषणं क्रियापदं
शुशोच
शुशोच इति एकमेव तिङन्तं किन्तु वस्तुतः अत्र वाक्यद्वयमस्ति प्रथमवाक्ये उन्मथिता अभूत् इति क्रिया सो दट् इस् द मेन् क्रिया फार् द फस्ट् सेण्टेन्स् द्वितीयवाक्ये शुशोच इति क्रियापदम् प्रथमाविभक्तिः
उन्मथिता
उन्मथिता
तनया
तनया त्वक् त्वक् इत्यपि प्रथमाविभक्तिः सो उन्मथिता त्वक् तनया इति प्रथमा विभक्तिः द्वितीया
कटं
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 आलीढम् कटम् एनम् सेनान्यम् आलीढम् इति द्वितीया विभक्तिः. तृतीया
अस्त्रैः.
अत्र
वन्यद्वीपेन
कण्डूयमानेन वन्यद्वीपेन असुरास्त्रैः इति तृतीया विभक्तिः. अनन्तरं षष्ठी अद्रेः अस्य त्वक् अस्य अद्रेः इति षष्ठी विभक्तिः. अव्ययम् कदाचित् अथ एण्ड् देन् इव इति अव्ययानि. अन्वयः का शुशोच तनया शुशोच. कस्य तनया अद्रेः तनया कं शुशोच एनं शुशोच. कथं शुशोच और कम इव शुशोच
सेनान्यम्
इव कीदृशं सेनान्यम् आलीढं सेनान्यं कैः आलीढम्
असुरास्त्रैः
आलीढं सेनान्यम् इव अद्रेः तनया एनं शुशोच इति द्वितीयवाक्यम्. प्रथमवाक्यं किम्? उन्मथिता अभूत्. अभूत् इति क्रियापदम् अध्याहर्तव्यं तिङन्तं, किन्तु उन्मथिता इति क्रिया. उन्मथिता इस् टु बि टार्न् अवे आर् टु बि पील्ड् अवे. त्वक् उन्मथिता.
कस्य त्वक् अस्य. केन उन्मथिता? वन्यद्वीपे. कीदृशेन वन्यद्वीपेन? कण्डूयमानेन. कदा उन्मथिता? कदाचित्. किं कण्डूयमानेन?
कटं कण्डूयमाने. उत्तमम्. सो उन्मथिता अभूत्, अवलुञ्चिता अभूत्. इट् वास् कट् अवे और् टार्न् अवे. का उन्मथिता अभूत्? त्वक्. त्वक् इस् द स्किन् आर् द बार्क्. इन् केस् आफ् द ट्री इट् इस् द बार्क् आफ् द ट्री. वल्कलम् इत्युच्यते. त्वक् उन्मथिता अभूत्. कस्य त्वक्? अस्य देवदारु वृक्षस्य. सो द प्रीवियस् श्लोक हि हेस् सेड् यु सी दिस् देवदारु ट्री. सो अस्य देवदारु वृक्षस्य त्वक् उन्मथिता अभूत्. कदा? कदाचित्. पूर्वं कदापि, बहुकालात् पूर्वम् इत्यर्थः केन उन्मथिता वन्यद्वीपेन वन्यः द्वीपः द्वीपः इत्युक्ते गजः कश्चिद् वनगजः वनगजेन उन्मथिता अभूत् कीदृशेन कण्डूयमानेन कर्षत आर् खर्जत इच्छिङ्ग् ओके दट् विच् इस् स्क्राचिङ्ग् इट्सेल्फ् इत्यर्थः स्क्राचिङ्ग् किं कण्डूयमानेन कटं कटः कपोलः कटशब्दस्य माट् इत्यर्थः अस्ति सः भिन्नः अत्र कटः इत्युक्ते गण्डः गजानां गण्डस्थलं कपोलः इत्यस्य कटः इत्यर्थः अस्ति अतः कपोलं कर्षता वनगजेन इट् इस् स्क्राचिङ्ग् इट्स् हेड् दट् इस् रब्बिङ्ग् इट्स् हेड् फोर्स्फुलि अगेन्स्ट् द ट्री तेन अस्य त्वक् उन्मथिता अभूत् इति प्रथमं वाक्यम् अथ इत्युक्ते तस्मिन् समये वृक्षस्य वल्कले अवलुञ्चिते सति सो वेन् शी सा दट् द ट्री वास् द बार्क् आफ् द ट्री वास् टोर्न् अवे शुशोच अखिद्यत बहु दुःखं प्राप्तवती का शुशोच तनया पुत्री कस्य तनया अद्रेः तनया अद्रेः पर्वतस्य तनया इत्युक्ते पार्वती शोकं प्राप्तवती कम् कथं शुशोच वेर् इस् द कम् देर् शुड् बि अ कम् शुशोच ओके कथं शुशोच इव नाम यथा कम् इव सेनान्यं सेनानीः देवसेनापतिः स्कन्दः कुमारः कार्तिकेयः तस्याः पुत्रः सो पुत्रम् इव सा शुशोच कीदृशं सेनान्यम् आलीढम् आलीढं क्षतं हु वाज़् वूंडेड और हर्ट कैः आलीढम् असुरास्त्रैः दानवानां प्रहरणैः यदि कुत्रचित् युद्धे सः तु सेनापतिः अस्ति युद्धे असुराणाम् अस्त्रैः पुत्रस्य व्रणः भवति चेत् मातुः शोकः भवति तत्तु अत्यन्तं सहजम् किन्तु वृक्षस्य विषये अपि पार्वत्याः तावान् स्नेहः अथवा तावती प्रीतिः येन उन्मथिता त्वक् इति दृष्ट्वा सा अत्यन्तं शोकम् अनुभूतवती इत्यर्थः वन् वर्ड् हेस् बीन् मिस्सिङ्ग् इन् दिस् कं शुशोच एनं नाम तरुं शुशोच इत्यर्थः सो तरोः विषये शोकं प्राप्तवती इत्यर्थः एवञ्च अन्वयः कदाचित् कटं कण्डूयमानेन वन्यद्वीपेन अस्य त्वक् उन्मथिता अथ अद्रेः तनया असुरास्त्रैः आलीढं सेनान्यम् इव एनं शुशोच पूर्वं कदापि कपोलं कर्षता वनगजेन एतस्य देवदारुवृक्षस्य वल्कलम् अवलुञ्चितम् अभवत् So once upon a time, by a forest elephant which was scratching its head against the tree, so the bark of the tree was peeled off. Tada Parvati, Danavanam Praharanaihi Swaputraha Skandaha Kshataha Chedyatha Tatha Asya Vrikshasya Vishaye Akhidyata. So she was as sad as if her son Skanda was hurt in battle by the Asuras. Iti shlokasya arthaha. कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथितात्वदस्य अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः व्याकरणांशाः अत्र कश्चित् प्रश्नः नैषोदवाक्यविश्लेषणं स्क्रीन् वन्स् फोर् दिस् श्लोक तनया इति प्रथमा विभक्ति सो तनया शुशोच शुशोच इत्यस्य कर्तृपदं तनया इति त्वक् उन्मथिता कस्य अस्य त्वक् उन्मथिता तनया अद्रेह तनया शुशोच इति अन्वयः अस्तु अग्रे गच्छामः व्याकरणांशान् ये वक्तुम् इच्छन्ति हस्तमुन्नयन्तु प्रयत्नः सर्वैः कर्तुं शक्यते शुद्धमेव भवेदिति कोऽपि नियमः नास्ति ओके सो यू केन् जस्ट् ट्रै इट् इट् इस् ओन्ली वेन् यु ट्रै दट् यू विल् गेट् नो इट्स् मी टेल्लिङ्ग् ऐ नो ओके सो अहं तु जानामि अत्र मम अभ्यासः भवति किन्तु भवन्तः यदा प्रयत्नं कुर्वन्ति तदा भवताम् अभ्यासः सम्यक् भवति कण्डूयमानेन निर्मला भगिनी
नमस्ते
वदतु
प्रयत्नं करोमि
आमां निश्चयेन
कण्डूयमानः अकारान्तशब्दः पुलिङ्गः तृतीया विभक्ति
एकवचनं पुल्लिङ्गः तृतीया विभक्तौ एकवचनम्
एकवचनं कण्डूयमान शाणच्
कण्डूय इति धातोः शानच् प्रत्ययः सो कण्डूय इस् अ नामधातु लैक् द सन् अन्यः प्रत्ययः अस्ति यक् इति प्रत्ययः अयं नामधातुः इट् इस् नाट् अ ओरिजिनल् धातु इट् इस् अ डिरैव्ड् धातु तस्मात् शानच् प्रत्ययः भवति कृतन्तः कटम्
कटम् अकारान्त कट पुल्लिङ्गः कटशब्दः द्वितीया विभक्ति एकवचनम्
सम्यक् अकारान्तः पुल्लिङ्गः द्वितीया एकवचनम् कदाचित्
अव्ययम्
अव्ययम् कदाचित् इति अव्ययम् कदा अव्ययम् ततः चित् चित् इति चित् चन परिचयसरे एव पठितम् अनिर्देशार्थे इट् इस् अन्सर्टन् टैम् इट् इस् नाट् स्पेसिफैङ्ग् सो एट् सम् टैम् इत्यर्थः तद्धितप्रत्ययः सः
वन्यद्विपेन अकारान्त वन्यद्विपशब्दः अकारान्तपुलिङ्गः वन्यद्विपः शब्दः तृतीया विभक्ति एकवचनं
अकारान्तः पुल्लिङ्गः एव क्षम्यतां दिस् इस् एन् एरर् इट् इस् पुल्लिङ्ग विग्रहः
विग्रहः वन्यश्च द्विपश्च तेन
अन्यश्च असौ द्विपश्च
असौ द्विपश्च तेन
कर्मधारय समासः वन्यः द्विपः अथवा वन्यश्च असौ द्विपश्च
कर्मधारय
समासः सम्यक् धन्यवादाः सो वन्यः इत्यत्र वने भवः वन्यः सो दट् विच् ईज् इन् द फारेस्ट् सो वन शब्दात् यत् इति तद्धितप्रत्ययः द्विपः द्वाभ्यां पिबति इति द्विपः द्विपः इति उपपदसमासः द्वाभ्यां पिबति इत्यर्थे द्वि इत्यस्मिन् उपपदे पा धातोः क इति प्रत्ययः कृदन्तः आल् उपपदसमासस् आर् आल्सो कृदन्तस् तत्र कृत् प्रत्ययः भवति उपपदसमासः अपि भवति द्वाभ्यां पिबति इत्युक्ते गजः किमर्थं द्विपः इति चेत् सः शुण्डया अपि पिबति मुखेन अपि पिबति सो वि आल् जनरलि ड्रिङ्क् थ्रू द मौत् इट् ड्रिङ्क्स् थ्रू द ट्रङ्क् अण्ड् इट् आल्सो हेस् द मौत् उभयथापि द्वाभ्यां पिबति अतः द्विपः इति गजस्य नाम दन्ती दन्तावलो हस्ती द्विरदो नेकपो द्विपः इति अमरकोशे अस्ति द्विरदः
द्वौ दन्तौ यस्य इति रदः इत्युक्ते दन्तः अनेकपः अनेकपः द्विपः इत्यस्य समानः अर्थः दन्ती दन्तावलः हस्ती द्विरदः अनेकपः द्विपः इति अमरकोशे अस्ति अग्रिमम् उन्मथिता उमादेवी भगिनी
नमस्ते अकारान्तपुल्लिङ्गः प्रथमाविभक्ति
मथिता स्त्रीलिङ्ग आकारान्तः
स्त्रीलिङ्ग प्रथमाविभक्ति एकवचनं
कीदृशः शब्दः प्रत्ययः अस्ति
उत्
उत् मथ
उत
कृत प्रत्ययः पठितः गतः इतिवत् उत् उपसर्गः मथ धातुः कृत प्रत्ययः कृदन्त शब्दः उन्मथिता त्वक्
त्वक् अकारान्त स्त्रीलिङ्ग प्रथमा विभक्ति एकवचन
चकारान्तः त्वच् इति प्रातिपदिका चकारान्तः स्त्रीलिङ्गः प्रथमा विभक्तौ एकवचनम् सम्यक् सो त्वक् स्त्री वल्कं वल्कलम् अस्त्रियाम् इति अमरकोशे त्वक् इति स्त्रीलिङ्गशब्दः वल्कं वल्कलम् इति अस्त्रियाम् इत्युक्ते स्त्रीलिङ्गे नास्ति वल्कः इति पुल्लिङ्गे वल्कं नपुंसके एवं वल्कलः वल्कलम् इति पुन्नपुंसकयोः शब्दः अस्य
मकारान्त इदं शब्दः षष्टिविभक्ति एकवचन
सम्यक् मकारान्तः पुल्लिङ्गः इदं शब्दः षष्टिविभक्तौ एकवचनम् अथ
अव्ययम्
अव्ययम् एनम्
एनं मकारान्तः दकारान्तः मकारान्तः पुल्लिङ्गद्वितीया विभक्ति एकवचनं
इदं शब्दस्य द्वितीया विभक्तौ एकवचने रूपद्वयम् इमम् एनम् इमे एने इमान् एनान् इति एतद् शब्दस्यापि द्वितीया विभक्तौ एनम् इति भवति सो एनम् can be either idam shabda or etad shabda so when you take it independently kintu atra purvam api asya iti idam shabdasya prayogah asti atah dvitiya varam api tasyaiva shabdasya prayogah idam shabdasya adrehe
ikarantah napumsakalingah adri shabdah shashti vibhakti sorry pullingah षष्टिविभक्ति एकवचन
इकारान्तः पुल्लिङ्गः अद्रिशब्दः षष्ठीविभक्तौ एकवचनम् अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः इति अमरकोशे अस्ति अद्रिः गोत्रः गिरिः अचलः शैलः इति सर्वमपि पर्वतस्य पर्यायपदानि तनया
आकारान्त स्त्रीलिङ्गतनया शब्दः प्रथमा विभक्ति एकवचन
सम्यक् आकारान्तः स्त्रीलिङ्गः तनया शब्दः प्रथमा विभक्तौ एकवचनं धन्यवादाः अग्रे अन्ये केऽपि वक्तुमिच्छन्ति राज आचार्य महोदय
नमस्ते प्रयत्नं करोमि
आम् निश्चयेन शुशोच
शुशोच भ्वादिगणः शुच धातोः लिट् लकारः प्रथमपुरुषः एकवचनम्
शुच धातोः लिट् लकारः प्रथमपुरुषः एकवचनम् शुशोच शो धातोः अर्थं जानाति वा
शोके शोक
शुच शोके इत्यर्थः शुशोच शुशोच शुशुचतुः शुशुचुः सेनान्यम्
सेनान्यम् ईकारान्त पुल्लिङ्ग सेनानि शब्दः द्वितीया एकवचनं
सम्यक् ईकारान्तः पुल्लिङ्गः सेनानी शब्दः द्वितीया विभक्तौ एकवचनम् हा सेनानी इत्यस्य विग्रहः
सेनां नयति इति सेनानीः तम्
सम्यक् सेनां नयति इति सेनानीः उपपदसमासः नीधातोः क्विप् इति प्रत्ययः अस्ति सो सेनां नयति इति सेनानीः हि हु लीड्स् द आर्मी इस् सेनानीः कमाण्डर् उत्तमम् आलीढम्
आलीढम् अकारान्त पुल्लिङ्गशब्दः द्वितीया एकवचनम्
सम्यक्
आ उपसर्ग लिस् धातु कृत प्रत्यय
उत्तमम् आ उपसर्गः लिह् इति धातोः क्त प्रत्ययः सो लिह् धातोः लिटरलि मीन्स् टु लिक् अत्र उपसर्गः अस्ति अतः ही हाज़् बीन् अटाक्ड् बै वेपन्स् इत्यर्थः भवति आलीढ लिह् धातोः लीढ इति प्रत्ययार्थशब्दः इव इति अव्ययम् असुरास्त्रैः
असुरास्त्रैः अकारान्तः पुल्लिङ्गशब्दः असुरास्त्रशब्दः तृतीया बहुवचनम्
नपुंसकलिङ्गः अस्त्रम् इति नपुंसकलिङ्गः तृतीया विभक्तौ बहुवचनम् विग्रहः
असुर विग्रहः न जानामि
प्रयत्नं करोतु कः अर्थः
असुरस्य
असुरस्य अस्त्राणि अथवा असुराणाम् अस्त्राणि बहवः भवन्ति सामान्यतः अतः असुराणाम् अस्त्राणि असुरास्त्राणि तैः षष्ठी तत्पुरुषः उत्तमम् कण्डूयमानेन कटं कदाचित् वन्यद्विपेनोन्मथितात्वगस्य अथैनमद्रे स्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः अत्र अलङ्कारः उपमालङ्कारः सम्यगेव दृश्यते इव आज़िफ् तत्र देवदारुवृक्षः उपमेयः सेनानीः अथवा स्कन्दः उपमानम् सो आज़िफ् इट् इस् स्कन्द तत्र शोकः साधारणधर्मः अद्रे स्तनया शुशोच सेनान्यम् इव शुशोच एनं शुशोच इति अलङ्कारः सो शी ग्रीव्ड् हिम् ग्रीव्ड् द ट्री एस् इफ् ग्रीविङ्ग् स्कन्द इति इव इति उपमावाचकशब्दः अतः पूर्णोपमा अलङ्कारः अस्ति उपजातिः तत्र कण्डूय वन्य सेनान्य इति प्रथम द्वितीय चतुर्थपादेषु इन्द्रवज्र अ इति लघुः तृतीयपादे उपेन्द्रवज्र उपजातिः वृत्तम् कण्डूयमानेन कटं कदाचित् वन्यद्विपेनोन्मथितात्वगस्य अथैनमद्रे स्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः एवञ्च अद्य श्लोकद्वयं दृष्टवन्तः सो एतस्मात् पूर्वं कैलासगौरं वृषमारुरुक्षोः इत्यनेन अहं साक्षात् शिवस्य किङ्करः अस्मि कुम्भोदरः इति पूर्वं कदाचित् अस्य देवदारुवृक्षस्य त्वक् वन्यद्वीपेन उन्मथिता तदा पार्वती अत्यन्तं खिन्ना आसीत् इति सिंहः उक्तवान् अग्रे किं वक्ष्यति इत्यत्र अग्रिमवर्गे अयं श्लोकः सत्त्वं निवर्तस्व विहाय लज्जाम् इति पुनः सत्त्वं मदीयेन शरीरवृत्तिम् इति श्लोकद्वयं पश्यामः मध्ये केचित् श्लोकाः त्यक्ताः चेत् कृपया एकम् ईमेल् प्रेषयन्तु सो ऐ विल् आल्सो लुक् एट् द टेक्स्ट् बुक् बट् इन् केस् सम् द नेक्स्ट् एस् फार् एस् ऐ नो इस् 40 अण्ड् देन् 45 So if there is any shloka in between, just let me know through an email. So Agrima Shukravasare, August Masasya, Dvitiya Dinanke Milamaha, Samasa Varge. वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरो मम पाहि गुरो. अन्ये केऽपि प्रश्नाः सन्ति वा? There was a question, how is Dvipa derived as an elephant? Tasyate uttaram dattam. I think that's it. Astu, milamaha agrima saptahe.